अनस्वन्ता सत्तदिर्मामहे मेघा वाचे जिष्ठो असूरो मघोनाः श्रीविष्णोऽग्ने दशभिः सहस्रैर्वैश्वानरत्र्यरुणश्चिकेत यो मे सदा च विंशतिम् च गोनाम् हरी च युक्ता सुधुरा ददाति वैश्वानरसृष्टोतो वा वृधानोऽग्ने यच्छत्यरुणाय शर्म एवाते अग्ने सुमतिम् च कानो न विष्ठाय न वमन्त्रसदस्युः यो मे गिरस्तु विजातस्य पूर्वीर्युक्तेनाभित्यरुणो गृणाति यो मयिति प्रवोचत्यश्व मेधाय सूरजे ददधृजासनिम् यते सजम् मेधामृतायते यस्य मावरुषा सदमुद्धर्षयम् चुक्षणाः अश्वमेधस्य दाना सोमाजिवत्या शिरः इन्द्राग्निः स ददाम्यश्वमेधे सुवीर्यम् क्षत्रम् धारयतम् बृहद्दिवि सूर्यमिवाजनम्